इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। अथ वार्ताः। निर्वाचनायोगेन उत्तरप्रदेशे विशेष पुनरीक्षण प्रक्रियायाः अनन्तरं राज्यस्य प्रारूप मतदात्री सूचिः प्रकाशिता। इतः पूर्वं प्रारूप मतदात्री सूचेः प्रकाशनं विगते दिसम्बर मासे 31 दिने निर्धारितम् आसीत्। उत्तरप्रदेशस्य मुख्य निर्वाचनाधिकारी नवदीप रिणवा अवदत् यत् अस्यां सूच्यां 55,655,12 मतदातारः सम्मिलिताः सन्ति।
इलेक्ट्रॉन रोल को हमने पब्लिश किया है और इसका नेट रिजल्ट ये निकला कि जो 15,44,30,092 मतदाता थे उनमें से जिनके गणना प्रपत्र जो रह रहे हैं उत्तर प्रदेश में जीवित हैं या तो स्वयं ने हस्ताक्षर करके दिया या उनके परिवार के किसी वयस्क सदस्य ने हस्ताक्षर करके दिया वो गणना पत्र जो हमारे पास आए वो थे 12,55,56,025।
अमुना उक्तं यत् आपत्तिं प्रस्तोतुं फरवरी मासस्य 6 दिवसः अन्तिमावधिः वर्तते। उत्तरप्रदेशे मार्च मासस्य 6 दिने परिष्कृता संशोधिता अन्तिमा च मतदातृसूचिः प्रकाशयिष्यते। ततः परं मतदातृसूच्यां कथमपि परिष्कारं नैव करिष्यते। केन्द्रीय सूचना प्रसारण मंत्री डॉक्टर एल मुरुगन वर्यः केरल कौमुदी दैनिकस्य वर्ष पर्यन्तं कोट्टयम संस्करणस्य रजत महोत्सवस्य समापन समारोहे भागम अगृह्णात्। जनसमूहं संबोधयन् मंत्री केरल कौमुदी इत्यस्य कोट्टयम संस्करणस्य 25 वर्षाणि अभवत् एतदर्थं वर्धापनानि ज्ञापितवान्। सः मलयालम पत्रकारीय क्षेत्रे अस्य पत्रस्य दीर्घकालस्य योगदानम् अपि स्मृतवान्। विदेशमंत्री डॉक्टर एस जयशंकरः अवोचत् यत् लक्समबर्ग देशः भारतस्य अत्यन्तं महत्वपूर्ण सहभागित्वेन देशत्वेन वर्तते, यत्र फिनटेक, स्पेस तथा आर्टिफिशियल इंटेलिजेंस इति कृत्रिम बुद्धिमत्ता इत्यादिषु क्षेत्रेषु सहकारस्य विस्तारस्य च प्रबला संभावना वर्तते। डॉक्टर जयशंकरः फ्रांस लक्समबर्ग देशयोः 6-दिवसीय यात्रायाः भागरूपेण लक्समबर्ग देशस्य प्रवासकाले एतत् उक्तवान्। सः लक्समबर्ग देशस्य प्रधानमन्त्रिणा ल्यूक फेड्रेन इत्यनेन सह उपप्रधानमन्त्रिणा विदेशमन्त्रिणा च जेवियर बेटेल इत्यनेन सहापि वार्तालापं कृतवान्। डॉक्टर जयशंकरः अवोचत् यत् लक्समबर्ग देशः न केवलं द्विपाक्षिक सहभागी रूपेण वर्तते अपितु यूरोपीय संघस्य अन्तः अपि विशेषतः भारत यूरोपीय संघस्य संबंधान् सुदृढं कर्तुं महत्वपूर्ण समये बहुमूल्य भूमिकां निर्वहति। स्वयात्रायां डॉक्टर जयशंकरः लक्समबर्ग नगरे देशे भारतीय समुदायस्य सदस्यैः सह अपि संवादं करिष्यति। राष्ट्रीय फैशन टेक्नोलॉजी संस्थान निफ्ट इत्यनेन फैशन विन्यासस्य प्रबन्धस्य तंत्रज्ञानस्य च विभिन्नेषु स्नातक स्नातकोत्तर पाठ्यक्रमेषु आवेदनपत्राणाम् आवेदनस्य अन्तिमदिनाङ्कः अस्य मासस्य 13-दिनाङ्कपर्यन्तं विस्तारितः। शिक्षामन्त्रिणा धर्मेन्द्र प्रधानेन ह्यः देशस्य 5 भाषाणां 55 दुर्लभाः बहुमूल्याः च साहित्यिक कृतयः लोकार्पिताः। भारतस्य लक्ष्यसेनः अद्य कुआलालम्पुरे मलेशिया ओपन सुपर 750 बैडमिंटन स्पर्धा मालिकायां पुरुष एकल क्रीडायाः द्वितीय चरणे हांगकांग देशस्य ली च्युक यीयू इत्येतं सम्मुखीकरिष्यति। इतः प्राग् लक्ष्यसेनः सिंगापुरस्य जिया हेंग जेसन तेह इत्येनम् 11:16, 15:21, 14:14 इत्यङ्कान्तरालेन पराजित्य पुरुषैकल वर्गे द्वितीय चक्रे प्रविष्टः। इति वार्ताः।